ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। राजोवाच परस्य विष्णोरीशस्य मायिनामपि मोहिनीं मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः। नानुतृप्येजुसंयुष्मद्वचो हरिकथामृतं संसारतापनिस्तप्तो मर्त्यस्तत्तापभेषजम्। अन्तरिक्ष उवाच एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये। एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः एकधादशधात्मानं विभजञ्जुषते गुणान्। गुणैर्गुणान् सभुञ्जान आत्मप्रद्योदितैः प्रभुः मन्यमान इदं सृष्टमात्मानमिह सज्जते। कर्माणि कर्मभिः कुर्वन् स निमित्तानि देहभृत् तत्तत्कर्मफलं गृह्णन् भ्रमतीह सुखेतरम्। इत्थं कर्मगतिर्गच्छन् बह्वभद्रवः पुमान् आभूतसंप्लवात् सर्गप्रलयावश्नुते वशः। धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् अनादिनिधनः कालो यव्यक्तायापकर्षति। शतवर्षायनावृष्टिर्भविष्यत्युल्बणा भुवि तत्कालोपचितोष्णार्को लोकान् स्त्रीन् प्रतपिष्यति। पातालतलमारभ्य सङ्कर्षणमुखानलः दहन्नूर्ध्वशिखो विश्वक् वर्धते वायुनेरितः। सांवर्तको मेघगणो वर्षति स्म शतं समाः धाराभिर्हस्तिहस्ताभिर्लीयते सलिले विराट्। ततो विराजमुत्सृज्य वैराजः पुरुषो नृप अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः। वायुना हृतगन्धाभूः सलिलत्वाय कल्पते सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते। हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते। कालात्मना हृतगुणं नभ आत्मनि लीयते। इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप प्रविशन्ति अहङ्कारं स्वगुणैरहमात्मनि। एषा माया भगवतः सर्गस्थित्यन्तकारिणी त्रिवर्णा वर्णिता अस्माभिः किं भूयः श्रोतुमिच्छसि। राजोवाच यथैतामैश्वरीं मायां दुस्तरामकृतात्मभिः तरन्त्यञ्चः स्थूलधियो महर्षैदमुच्यताम्। प्रबुद्ध उवाच कर्माण्यारभमाणानां दुःखहत्यै सुखाय च पश्येत्पाकविपर्यासं मिथुनीचारिणां दृणां नित्यार्चितेन वित्तेन दुर्लभेनात्ममृत्युना। गृहापत्याप्तपशुभिः काप्रीतिः साधितैश्चलैः एवं लोकं परं विद्यान् नश्वरं कर्म निर्मितं सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनां। तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमं शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम्। तत्र भागवतान् धर्मान् शिक्षेत् गुर्वात्मदैवतः अमाययानुवृत्त्यायै स्तुष्येदात्मात्मदो हरिः। सर्वतो मनसो सङ्गमादौ सङ्गं च साधुषु दयां मैत्रीं प्रश्रयं च भूते श्रद्धा यथोचितम्। शौचं तपस्थितिक्षां च मौनं स्वाध्यायमार्जवम् ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः। सर्वत्रात्मेश्वरान् वीक्षां कैवल्यमनिकेततां विविक्तचीरवसनं सन्तोषं येन केनचित् श्रद्धां भागवते शास्त्रे निन्दामन्यत्र चापिः। मनोवाक्कर्मदण्डं च सत्यं शमदमावपि श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः। जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियं दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम्। एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदं परिचर्यां चोभयत्र महत्सुन्दृषु साधुषु परस्परानुकथनं पावनं भगवद्यशः। मिथो रतिर्मिथस्तुष्टिर्निर्वृतिर्मिथ आत्मनः स्मरन्तः स्मारयन्तश्च मिथो घौघहरं हरिं भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम्। क्वचिद् रुदन्त्यच्युतचिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्यलौकिकाः नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः। इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया नारायण परो माया मञ्जस्तरति दुस्तराम। राजोवाच नारायणाभिधानस्य ब्रह्मणः परमात्मनः निष्ठामर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः। पिप्पलायन उवाच स्थित्युद्भव प्रलय हेतुरहेतुरस्य यत् स्वप्न जागर सुषुप्तिषु सद्बहिश्च देहेन्द्रियासु हृदयानि चरन्ति येन सञ्जीवितानि तद्वेहि परं नरेन्द्र। नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथा नलमर्चि सहस्वा। शब्दोऽपि बोधक निषेधतयात्ममूल मर्थोक्तमाह यदृतेन निषेध सिद्धिः। सत्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम्। ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसत्यतयोः परं यत्। नात्मा जानन मरिष्यति नैध ते सौ न क्षीयते सवन व्यभिचारिणां हि। सर्वत्र शश्वदनपायुपलब्धिमात्रम् प्राणो यथेन्द्रियबलेन विकल्पितं सत्। अण्डेषु पेशिषु तरुष्व विनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र। सन्ने यदिन्द्रियगणे हमि च प्रसुप्ते कूटस्थाशयमृते तदनुस्मृतिर्नः। यर्यब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेत् गुणकर्मजानि। तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षात् यथा मलदृशो सवितृप्रकाशः। राजोवाच कर्मयोगं वदत नः पुरुषो येन संस्कृतः विधूयेहासु कर्माणि नैष्कर्म्यं विन्दते परम्। एवं प्रश्नं ऋषीन् पूर्वमपृच्छं पितुरन्तिके नाब्रुवन् ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम्। आविर्होत्र उवाच कर्मा कर्म विकर्मेति वेदवादो न लौकिकः। वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः। परोक्षवादो वेदोऽयं बालानामनुशासनम्। कर्म मोक्षाय कर्माणि विधत्ते यगदं यथा नाचरेत् यस्तु वेदोक्तं स्वयमज्ञो जितेन्द्रियः। विकर्मणाय धर्मेण मृत्योर्मृत्युमुपैति सः। वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे। नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः। य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम्। लब्धानुग्रह आचार्यात्तेन सन्दर्शितागमः। महापुरुषमभ्यर्चेन्मूर्त्याभिमतयात्मनः। श्रुतिसम्मुखमासीनः प्राणसंयमनादिभिः पिण्डं विशोध्य सन्न्यास कृतरक्षोऽर्चयेद्धरिम्। अर्चादौ हृदये चापि यथा लब्धोपचारकैः द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम्। पाद्यादीनुपकल्प्याथ सन्निधाप्य समाहितः हृदाधिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत्। साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः पाद्यार्घ्याचमनीयाद्यैः स्नानवासो विभूषणैः गन्धमाल्याक्षतस्रग्भिर्धूपदीपोपहारकैः साङ्गं सम्पूज्य विधिवत् स्तवैः स्तुत्वा न मेद्धरिम्। आत्मानं तन्मयं ध्यायन् मूर्तिं सम्पूजयेद्धरेः। शेषामाधाय शिरसि स्वधाम्न्युद्वास्य सत्कृतम्। एवमग्न्यर्कतो यादावतिथौ हृदये च यः यजतीश्वरमात्मानमचिरान्मुच्यते हि सः। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे तृतीयोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां धोजे रतिः स्यादनपायिनी।